इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। स्टार्टअप महाकुंभ अद्य नवदिल्ल्याः भारत मण्डपम् इत्यत्र समारब्धम्। तेलंगानायाः जगित्याले नैर्वाचनिकीं जनसभां संबोधयन् श्रीमोदी उक्तवान् यत् भाजपा दलं तेलंगाना क्षेत्रीय जनानां आकांक्षाः पूरयितुं वचनबद्धम् अस्ति। सर्वोच्च न्यायालयेन दिल्ल्याः पूर्वमन्त्री सत्येन्द्र जैनस्य मोचन याचिकेऽपि अस्वीकृता। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः पञ्चम कार्यकालाय राष्ट्रपति निर्वाचने ऐतिहासिकं विजयम् अधिगतवान्। अपि च भारत ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीरे लद्दाखे हिमाचल प्रदेशे उत्तराखण्डे च वृष्टेः हिमपातस्य च सम्भावना प्रकटिता। अथ वार्ताः विस्तरेण। स्टार्टअप महाकुंभ अद्य नवदिल्ल्याः भारत मण्डपम् इत्यत्र समारब्धम्। कार्यक्रमोऽयम् अस्य मार्च मासस्य विंशतिः दिनांकं यावत् प्रचलिष्यति। अस्मिन् आयोजने विभिन्न स्टार्टअप इत्यस्य विभिन्न मण्डपाः भविष्यन्ति, येषु एआई, बी2बी, एग्रीटेक, डीपटेक, क्लाइमेट टेक, गेमिंग, ई स्पोर्ट, फिटनेस सदृशाः नैके मण्डपाः सम्मिलिताः सन्ति। अस्य महाकुंभस्य उद्देश्यं पूंजीपतिनां निवेशकानां च भारतीय व्यापारेण सह संयोजनम् अस्ति। उद्योग संवर्धन आन्तरिक व्यापार विभागस्य सचिवेन राजेश कुमार सिंहेन उक्तं यत् भारतं तृतीयः सर्वाधिक बृहत्तमः स्टार्टअप इति तन्त्रस्य देशः अस्ति। अपि च देशे सम्प्रति स्टार्टअप इति एकलक्षाधिकाः सन्ति, यो हि षोडशोत्तर द्विसहस्रतमे वर्षे स्टार्टअप इण्डिया उपक्रमस्य आरम्भे केवलं 3% यावत् एव आसीत्। तेनोक्तं यत् 50%-तोप्यधिकाः स्टार्टअप द्वितीय श्रेण्याः तृतीय श्रेण्याः नगरेभ्यः सन्ति। स्टार्टअप इत्यस्मिन् डीपटेक अपि च अनुसन्धान विकासयोः महत्वे प्रवदता श्रीसिंहेनोक्तं यत् आगामि मासेषु एकं भिन्नं समर्पितं च डीपटेक स्टार्टअप नीतये अन्तिमं रूपं प्रदीयते। अस्मिन् अवसरे भारतस्य G20 शेरपा अमिताभ कांतेन उक्तं यत् स्टार्टअप इण्डिया योजनायाः आगमनानन्तरं देशे स्टार्टअप इत्यस्य संख्यायां उल्लेखनीयः वृद्धिः जाता। तेनोक्तं यत् पारिस्थितिकीय तन्त्रेण विगतेषु अष्टवर्षेषु 10 लक्षाधिकाः वृत्त्यवसराः, 1 कोटितोप्यधिकाः अप्रत्यक्ष वृत्त्यवसराः सृजिताः। अस्माकं वार्ताहरेण ख्यापितं यत् अस्मिन् महाकुम्भे 2000+ स्टार्टअप, 30,000 यावत् भाविनः उद्यमिनः, 50,000 यावत् उद्योगागन्तुकाः, 10 देशानां प्रतिनिधिमण्डलानि च भागं भजिष्यन्ते। वरिष्ठ भाजपा नेता एवं प्रधानमन्त्री मोदी उक्तवान् यत् दक्षिणीय राज्येषु राष्ट्रिय जनतांत्रिक गठबन्धनस्य एनडीए इत्यस्य पक्षे उत्साहोऽस्ति। तेलंगानायाः जगित्याले अद्य एकां नैर्वाचनिकीं जनसभां सम्बोधयन् श्रीमोदी उक्तवान् यत् भाजपा दलं तेलंगाना क्षेत्रीय जनानां आकांक्षाः पूरयितुं वचनबद्धम् अस्ति। तेन उक्तं यत् जगित्यालस्य जनसभायाम् एकत्रितः जनसागरः स्पष्टतया संकेतं ददाति यत् वायुः कस्यां दिशि प्रवहति। श्रीमोदी अद्य कर्नाटकस्य शिवमोगा इत्यत्र एकां जनसभां सम्बोधयिष्यति। शिवमोगा भारतीय जनता पार्टीति दलस्य शीर्षस्थस्य नेतुः बीएस येदियुरप्पा अस्य गृहजनपदः अस्ति। अस्य ज्येष्ठपुत्रः वी वाई राघवेन्द्र शिवमोगा निर्वाचनक्षेत्रे वर्तमानः सांसदः अस्ति। जनसभासमये बीएस येदियुरप्पाम् अतिरिच्य राज्यस्य अन्ये वरिष्ठाः नेतारः मञ्चे चर्चां करिष्यन्ति। सर्वोच्च न्यायालयेन अद्य धनशोधन प्रकरणे दिल्ल्याः पूर्वमन्त्री सत्येन्द्र जैनस्य मोचन याचिकेऽपि अस्वीकृत्य तक्षणम् आत्मसमर्पणाय उक्तम्। न्यायाधीश वेला एन त्रिवेदी अपि च न्यायाधीश पंकज मिथिलः इत्येतयोः पीठेन सत्येन्द्र जैनस्य याचिका अस्वीकृता। न्यायालयेन अन्याभियुक्तयोः अंकुश वैभव जैनयोः च मोचन याचिका अपि अस्वीकृता। जैनस्य अधिवक्तुः मौखिकानुरोधः शीर्षन्यायालयेन अस्वीकृतः यस्मिन् सः एकसप्ताहस्याभ्यन्तरे आत्मसमर्पणं कर्तुं शक्नोति इति निर्दिष्टम् आसीत्। सत्येन्द्र जैनेन गतवर्षस्य मई मासस्य षड्विंशे दिनांके चिकित्सा कारणात् षट् सप्ताहानां कृते अन्तरिम मुक्तेः अनुमतिः प्राप्ता आसीत्। तदनन्तरं च समये समये तस्य अवधिः विस्तारिता। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः पञ्चम कार्यकालाय राष्ट्रपते निर्वाचने ऐतिहासिकं विजयम् अधिगतवान्। 80% प्राप्तानां मतानां गणनास् सः 87% मतानि प्राप्तवान्। अनेन सहैव सः षड्वर्षीयस्य कार्यकालाय राष्ट्रपतिः भविता। राष्ट्रपति निर्वाचने कम्युनिस्ट दलस्य अभ्यर्थी निकोलाई खरितोनोक द्वितीय स्थाने, नवीनश्च अभ्यर्थी व्लादिस्लाव दावानकोवः तृतीय स्थाने सन्ति। भारतीय ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीरे, लद्दाखे, हिमाचल प्रदेशे, उत्तराखण्डे च वृष्टेः, हिमपातस्य च सम्भावना प्रकटिता। महाराष्ट्र, मध्यप्रदेश, छत्तीसगढ़ राज्यानां केषुचित् भागेषु नारंग वाल्मीकि संचेतना प्रसारिता। आईएमडी इत्यनेन उक्तं यत् अद्य मध्यप्रदेशस्य, छत्तीसगढ़स्य, विदर्भस्य, झारखण्डस्य च केषुचित् भागेषु वज्रपातः, विद्युत् तीव्र वायुः च दृश्यन्ते। आगामि दिनद्वये तेलंगाना, आन्ध्रप्रदेशस्य, उत्तर पूर्वीय भारतस्य च केषुचित् भागेषु निम्न मध्यम वृष्टिः, हिमपातः, विद्युद्योतनं च सम्भवन्ति। सर्वोच्च न्यायालयः भारतीय स्टेट बैंक एसबीआई वित्तागारं अद्य नैर्वाचनिक बन्ध प्रपत्रेण सम्बद्धानां समस्तानां विवरणानां सूचना प्रदानाय निर्देशं दत्तवान्। सर्वोच्च न्यायालयः एसबीआई वित्तागारं मार्च मासस्य 21 दिनांकं यावत् क्रेतृणां प्राप्तकर्तृणां च राजनैतिक दलानां मध्ये सम्पर्कं दर्शयितुं विशिष्ट बन्ध प्रपत्र संख्यानां सूचनां प्रदातुम् अपि उक्तवान्। सर्वोच्च न्यायालयः एसबीआई इत्यस्य अध्यक्षं सायं 5 यावत् न्यायालयस्य समक्षे एकं शपथ प्रपत्रं पञ्जीकर्तुम् उक्तवती उक्तवान्। लोकसभा निर्वाचनात् पूर्वं निर्वाचनायोगेन अद्य अधिकारिणां बृहत्स्तरे स्थानान्तरणाय आदेश प्रदत्त। आयोगेन पश्चिमबंगस्य आरक्षि महानिदेशकं समेत्य 6 राज्याणां गृहसचिवा अपि निष्कासिता। सूत्रानुसारि गुजरातस्य, उत्तरप्रदेशस्य, बिहारस्य, झारखण्डस्य, हिमाचलप्रदेशस्य, उत्तराखण्डस्य च गृहसचिवा स्थानान्तरिता। मिजोरम हिमाचलप्रदेशयोः सामान्य प्रशासनिक विभागस्य सचिवौ अपि स्थानान्तरितौ। तदतिरिच्य बृहन्मुम्बई नगरपालिकायुक्तस्य इकबाल सिंह चहलस्य अपि च अतिरिक्तायुक्तानां उपायुक्तानां च स्थानान्तरणस्य आदेशो निर्वाचनायोगेन प्रदत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् श्रीनगरस्य डल सरोवरस्य तटे आयोजितं प्रथमं फार्मूला 4 इति कारयान प्रदर्शनं जम्मूकश्मीरस्य सौन्दर्यस्य प्रदर्शने इतोप्यधिकं साहाय्यं भविष्यति। एकस्मिन् सामाजिकन्तर्जाल सन्देशे श्रीमोदिना उक्तं यत् भारतं मोटर स्पोर्ट्स इत्यस्य समृद्धेः अवसरं प्रददाति तथा च श्रीनगरं तेषु स्थानेषु शीर्षे अस्ति यत्र एतद् भवितुम् अर्हति। ह्यः श्रीनगरस्य डल सरोवरस्य तटे प्रथमं वारं फार्मूला 4 इति कारयान प्रदर्शनम् अभवत्। महिलानां क्रिकेट प्रीमियर लीग प्रतिस्पर्धायां ह्यः रॉयल चैलेंजर्स बेंगलुरु इत्यनेन दलेन दिल्ली कैपिटल्स दलम् 8 दिल्ल्याः अरुण जेटली क्रीडांगणे पराजितम्। प्रतिस्पर्धायाम् अस्यां दिल्ली कैपिटल्स दलेन पदकं विजित्य बल्लन क्रीडनं स्वीकुर्वता 14% धावनांकाः निर्मिताः। लक्ष्यमनुसरता रॉयल चैलेंजर्स बेंगलुरु दलेन क्रीडकद्वयस्यैव हानिपुरस्सरं 15% धावनांकान् स्थापयित्वा स्पर्धेयं विजितम् इति वार्ताः।